इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य मॉस्को नगरे रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुतिनेन सह भारत रूस देशयोर्मध्ये द्वाविंशतितमस्य वार्षिक शिखर सम्मेलनस्य सहाध्यक्षतां विधास्यति। सम्मेलनावधौ एतस्मिन् प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रपतिः पुतिनश्च रक्षा व्यापार सम्बन्ध निवेशोर्जा सहयोग शिक्षा संस्कृति विषयान् समेत्य द्विपक्षीय श्रृंखलायाः समीक्षां करिष्यतः। उभौ नेतारौ पारस्परिक कल्याणाय क्षेत्रीय वैश्विक विकासयोः दृष्टिपातं करिष्यति। अपि च ब्रिक्स शंघाई सहयोग संगठन G20 पूर्वीय एशिया शिखर सम्मेलन इत्यादिषु प्रख्यात समूहेषु द्विपक्षीय सम्बन्धानां वर्तमान स्थितेः समाकलनम् अपि समाचरिष्यतः। ध्येयम् अस्ति यत् श्रीमोदी रूस ऑस्ट्रिया देशयोः त्रिदिवसीयाधिकारिक यात्रायां ह्यः सायं मॉस्को नगरं गतवान्। तत्र श्रीमोदिनः विमानपत्तनस्थानके समागमने भव्यम् औपचारिकं स्वागतमपि रूसदेशस्य प्रथमोपप्रधानमन्त्रिणा डेनिस मन्टुरोव इत्यमुना विहितम्। राष्ट्रपतिना पुतिनेन ह्यः सायं प्रधानमन्त्रिणे श्रीमोदिने रात्रिभोजस्यापि आयोजनं कृतम्। सर्वोच्च न्यायालयेन केन्द्र राष्ट्रिय परीक्षणाभिकरणे नीट यूजी परीक्षायाः प्रश्नपत्राणां दुरुद्घाटन प्रकरणे बुधवासरं यावत् प्रतिवेदन प्रस्तावाय कथिते। शीर्ष न्यायालयेन केन्द्रीयान्वेषणाभिकरणमपि साम्प्रतं यावत् प्राप्त परीक्षण प्रतिवेदनाय उक्तम् अस्ति। अत्रावसरे न्यायालयेन प्रोक्तं यत् परीक्षायाः निरस्तीकरणम् अन्तिमोपायः स्यात्, किन्तु पुनः परीक्षायाः आदेशात् प्राक् प्रश्नपत्राणाम् उद्घाटनस्य उत्सज्ञानं नूनं कर्तव्यम्। एकस्मिन् वादश्रवणे ऐषमो नीट परीक्षायां कथितानाम् अनियमिततानां कदाचाराणां च आरोपविषयिण्यः पुनः परीक्षा योजनार्थं निर्देश प्रदान विषयिण्यश्च याचिकाः अपि समाविष्टाः आसन्। मुख्य न्यायाधीशस्य डीवाई चन्द्रचूडस्य, न्यायमूर्तेः जेबी पारदीवालावर्यस्य, न्यायमूर्तेः मनोज मिश्रस्य च न्यायपीठेन आहत्य 38 याचिकानां वादश्रवणं विधीयते। पीठमिदं सर्वादौ तासां याचिकानां श्रवणं कृतवत् यासु याचिकासु परीक्षाणां कदाचारस्य कारणेन पुनः परीक्षायाः आयोजनं याचितम् आसीत्। एतदनन्तरमेव NTA इति राष्ट्रिय परीक्षणाभिकरणस्य केन्द्रस्य च वादाः गुरुवासरे श्रोष्यन्ते। मुम्बय्याः विविधेषु भागेषु अतिवृष्ट्याः कारणेन सामान्यं जनजीवनं प्रभावितं जातम्। अतिवृष्ट्या मुम्बय्याः अपि च उपनगराणां निम्नक्षेत्रेषु जलम् एकत्रितम् अभवत्। नगरस्य जीवनरेखाः, उपनगरीय रेलसेवाः अपि संकटग्रस्ताः अधुना सन्ति। वडाला मानखुर्दयोः मध्ये हार्बर पट्टिकायां रेलयानानि अस्थायिरूपेण स्थगितानि। एतदतिरिच्य बसयानसेवामार्गाः अपि परिवर्तिताः। विद्यालयेषु महाविद्यालयेषु च प्रथमसत्राय अवकाशः अपि उद्घोषितः। मुम्बई विश्वविद्यालयस्य कतिपय परीक्षाः अपि स्थगिताः। तत्रैव उत्तराखण्ड राज्ये चम्पावत उधमसिंह नगर जनपदयोः सहायोद्धार कार्याणि विधीयते। ह्यः रात्रौ सततं जायमानया वृष्ट्या उभयोः जनपदयोः केषुचित् स्थलेषु जलम् एकत्रितं जातम्। ऋतुविज्ञान विभागेन राज्यस्य केभ्यश्चित् भागेभ्यः पीत संचेतना प्रख्यापिता। अद्य चेन्नई नगरस्य MA चिदम्बरम क्रीडांगणे भारतीय क्रिकेट दलं दक्षिणाफ्रिका दलेन सह स्पर्धां करिष्यति। इति वार्ताः।